सर्वेभ्यः राम राम राम। प्रथमतया ध्यानश्लोकेन प्रारंभं कुर्मः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं, व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्, अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीं। नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र, येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं, यत्कृपा तमहं वन्दे परमानन्दमाधवम्। सर्वेभ्यः राम राम राम। गुरुं गणपतिम् आचार्यान् मातापितरन् सर्वान् नत्वा अद्यतनकक्ष्यां प्रारम्भं कुर्मः। प्रथमाध्यायस्य समापने तत्र अर्जुनः नयोत्स्ये इति निश्चयं कृत्वा सः रतोपस्थ उपाविशत्। तदनन्तरं द्वितीयाध्यायस्य प्रारम्भं कृतवन्तः। सञ्जयः वदति धृतराष्ट्रं प्रति, तं तथा कृपया विष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तमिदवाक्यम् उवाच मधुसूदनः इति। तत्र मधुसूदनः श्रीकृष्णः तादृशकृपया आविष्टं, कृपया अतीव दयया आविष्टं परिपूर्णं आक्रान्तम् अश्रुपूर्णाकुलेक्षणं बाष्पपर्याकुलेक्षणं बाष्पपूरितनेत्रं विषीदन्तं दुःखितम् अर्जुनं प्रति इदम् एतद्वाक्यम् उवाच इति अस्माभिः प्रथमश्लोके दृष्टमस्ति। मधुसूदनः अर्जुनं प्रति इदं वाक्यम् उवाच। कीदृशम् अर्जुनं प्रति? कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तम् अर्जुनं प्रति इदं वाक्यम् उवाच। तत्र विशेषरीत्या विशेषांशरीत्या अस्माभिः दृष्टमस्ति कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तम्। एतत् तत्र अतीव सम्मरीरीत्या प्रथमाध्यायस्य तत्र अर्जुनस्य मनसि यत् वर्तते तत् अतीव सारांशरीत्या पदत्रयेषु उक्तमस्ति इति। तत्र सः न तु भीतः, भयेन सः युद्धात् पलायनं न करोति, सः कृपया आविष्टः भूत्वा सः युद्धं न करोमि इति उक्तवान्। तदेव तत्र अतीव सूक्ष्मतया अस्माभिः द्रष्टव्यमस्ति। त्री वर्ड्स्, कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तं, शोस् द स्टेट् आफ् मैण्ड् आफ् अर्जुन डिस्क्रैबिङ्ग् इन् द इन् समरि श्लोका नम्बर् 28-47 आफ् द फस्ट् चाप्टर्। तत्र मधुसूदनः इति पदस्य उपयोगः कृतः सञ्जयेन। तत्र मधुसूदनः इत्युक्ते मधु इत्याख्य अर्जुनस्य अर्जुनं सूदितवान् सः मारितवान् तादृशः कृष्णः मधुसूदनः। एवमेव यदि धृतराष्ट्रपुत्राः अपि यदि मधुवत् मधु असुरवत् ते अपि वर्तन्ते चेत् तत्र तानपि अवश्यं सः मारयति इति द्योतयितुमेव मधुसूदनः इति पदस्य उपयोगः इति भाष्यकारैः उक्तमस्ति। एवं तत्रापि साधारणरीत्या एव यदि पश्यामश्चेत् कृष्णः असुरान् मारयति, महाविष्णुः असुरान् मारयति, अपि च अत्र तु अवतारकार्यमेव दुष्टशिक्षणं शिष्टपरिपालनम् एवम् अवश्यं सः करोति इति द्योतयितुमपि मधुसूदनः इति पदस्य उपयोगः दृष्टमस्ति. अपि च अश्रुपूर्णाकुलेक्षणम् इति पदस्यापि व्याख्यानम् अतीव रोमाञ्चतया दत्तमस्ति. अश्रुपूर्णाकुलेक्षणम् यदा जनाः अश्रुपूर्णनयनाः भविष्यन्ति तदा तैः सम्यक् द्रष्टुं न शक्यते. वेन् पीपल्स् ऐस् आर् फिल्ड् वित् टियर्स् दे विल् नाट् बि एबल् टु सी क्लियर्लि. एवं तत्र अर्जुनोऽपि अश्रुपूर्णाकुलेक्षणः अस्ति. एवं तेन यत् साधु यदसाधु इति सम्यक् द्रष्टुं न शक्यते. देर् फोर् हि इस् नाट् एबल् टु सी वाट् इस् रैट् एण्ड् वाट् इस् राङ्ग्. एवम् अश्रुपूर्णाकुलेक्षणः अर्जुनः इदानीं तत्र युद्धे वर्तते इति द्योतयितुम् अश्रुपूर्णाकुलेक्षणम् इत्यपि भाष्यकारैः दत्तमस्ति. वाक्यम् इदमुवाच इत्यपि वक्तुम् इत्यनेनापि अलं भवति. इदम् उवाच इति वयं स्वीकुर्मश्चेत् तेनापि अलं भूयात् प्रायशः. परं वाक्यम् उवाच इति तत्र वाक्यम् इति पदस्य उपयोगः कृतः. एवं वाक्यमिति तत् आगामि वर्तमान श्लोकानां महत्त्वं माहात्म्यं, यत् गाढता गाम्भीर्यं विषयगाम्भीर्यम् ओजः यदस्ति तदेव सूचयितुम् इदं वाक्यमुवाच इति वाक्यपदस्य उपयोगः इति भाष्यकारैः दत्तमस्ति. सो बै द यूसेज् आफ् द वर्ड् वाक्यम् इदं वाक्यमुवाच, हि कुड् हव् जस्ट् टोल्ड् इदम् उवाच. वै डिड् हि यूस् द वर्ड् वाक्यम्? इफ् सम्बडि आस्क् द वर्ड् वाक्यम् हेस् बीन् यूस्ड् to show the profoundness of what are the words and sentences which are going to come forth, the ensuing words which are being which are going to be spoken by Krishna. tadrsha vakyana mahatvam varnayitum eva vakyam iti padasya upayogah iti bhashyakarehi dattamasti. एवं प्रथमश्लोकं तावत् सञ्जयः धृतराष्ट्रं प्रति वदति. किमिति? मधुसूदनः श्रीकृष्णः कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तम् अर्जुनम् इदं वाक्यम् उवाच. द्वितीयस्तावत् वाक्यं द्वितीयश्लोकः अस्माभिः दृष्टमस्ति गतकक्षायां. श्रीभगवान् उवाच, भगवान् कृष्णः अर्जुनं प्रति वदति, कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन. एवम् अस्य श्लोकस्यापि अन्वयपदपदार्थं सर्वम् अस्माभिः दृष्टमस्ति. हे अर्जुन, विषमे समुपस्थितम् इदम् अस्मिन् विपत्काले समुपस्थितं, तत्र विपत्काले आगते सत्यपि भवान् तत्र कथम् एतत् अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं, चित्तकालुष्यं यदस्ति, चाञ्चल्यं यदस्ति, तत् कुतः त्वां समुपस्थितम्? कुतः, कस्मात् कारणात्, केन प्रकारेण, कस्मात् प्रदेशात्, कथम् इदं कश्मलं चित्तचाञ्चल्यं त्वां समुपस्थितं, त्वां समागतम्? हौ डिड् यू गेट् दिस् पोल्यूशन् आफ् मैण्ड् विच् हेस् त्री टैप्स् आफ् क्यारेक्टरिस्टिक्स्? अगेन् अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्. फ्रम् वेर् डिड् यू गेट् सच् एन् अन्वर्ति कैण्ड् आफ् अ पोल्यूशन् आर् अ डिल्यूशन् आफ् मैण्ड् विच् इस् टोटलि नाट् बिफिटिङ्ग् अ पर्सन् लैक् यू? एवम् उक्तमस्ति. तदा अस्माभिः पृष्ट तत्र विशेषांशभागे दृष्टमस्ति कश्मलम्. कश्मलम् इत्युक्ते अत्र यत् तत्र चत्वारि पुरुषार्थस्य प्रयोजनकारी नास्ति तत् कश्मलम्. कश्मलम् इस् दट् विच् वुड् नाट् लीड् टु एनी आफ् द फोर् पुरुषार्थास्, नेम्ली धर्म, अर्थ, काम, मोक्ष. सो यद्यपि आक्टिविटि अस्ति तत्र मनुष्येण यत् कृतं कर्तव्यमस्ति, कार्यमस्ति, दट् शुड् लीड् टु वन् आफ् द फोर् पुरुषार्थास् ऐडलि. इफ् इट् इस् नाट् लीडिङ्ग् देन् द वर्ड् यूस्ड् बै कृष्ण हिस् कश्मलम्. सो कथम् एतत् कश्मलं त्वयि समुपस्थितम्? हौ डिड् दिस् पोल्यूशन् आर् डिल्यूशन् आफ् मैण्ड् कम् इन् सैड् यू इति सः पृच्छति. अर्जुन इति एव पदम् उपयुक्तमस्ति अत्र. अगेन् वीसा, किमर्थम् अर्जुन, हे अर्जुन इति पदस्य उपयोगः कृतमस्ति? हे अर्जुन, अर्जुन इत्यस्य अर्थस्तावत् अतीव श्वेतं, शुक्लं, यत् तत्र तत्र भासितं वा यत् पवित्रतया वर्तते यत् भासमानः वर्तते सः एव यः वर्तते सः एव अर्जुनः इति स्वीकृतमस्ति. एवं तादृश पुरुषस्य यस्य सर्वदा क्लारिटी आफ् मैण्ड् प्यूरिटी आफ् मैण्ड् तत्र अस्ति तादृशपुरुषस्य भवतः एतत् न युक्तम् एतत् कष्मलं चित्तचाञ्चल्यं न युक्तम् इति सः वदति. तदर्थमेव तद्योतयितुमेव तत् स्मारयितुमेव हे अर्जुन इति सः वदति. हे अर्जुन इत्युक्ते यू हेव् सो मच् आफ् क्लारिटी, यू हेव् सो मच् आफ् प्यूरिटि, यु केन् थिङ्क् सो वेल्, बट् नौ अट् दिस् जङ्क्चर् विषमे समुपस्थितं किमर्थम् एतादृशं चित्तचाञ्चल्यम् इति सः पृच्छति. अगेन् विसा, त्री टैप्स् आफ् पीपल् आर् देर्, द मोक्षा पीपल्, द स्वर्गा पीपल्, द नेम् अण्ड् फेम् पीपल्. मोक्षा पीपल् अल्टिमेट् ये सन्ति तत्र मोक्ष मुमुक्षवः ये सन्ति मोक्षं प्राप्तुम् इच्छुः मुमुक्षुः ये मुमुक्षवः सन्ति तैः अपि एतत् मार्गः न स्वीक्रियते. अनार्यजुष्टं, बै डूयिङ्ग् दिस् यु आर् नाट् इवन् गोयिङ्ग् टु अटेण्ड् मोक्ष. इफ् यु थिङ्क् यु आर् गोयिङ्ग् टु अटेन् मोक्ष बै डूयिङ्ग् दिस् आक्ट् आफ् युवर्स् बै रिफ्रेनिङ्ग् फ्रम् फैटिङ्ग्, देन् यु आर् नाट् कमिङ्ग् अण्डर् द केटगरी आफ् मोक्ष पीपल्, देर् फोर् यु वाट् यु आर् डूयिङ्ग् इस् नाट् द रैट् थिङ्ग्. यदि भवान् तत्र स्वर्गकामो यजेत इति रीत्या यदि स्वर्गकामः अस्ति भवान् तर्हि एतद् युद्धनिवारणेन स्वर्गमपि न प्राप्यते. इफ् यु रादर् इफ् यु फैट् अण्ड् डै इन् द वार् आल्सो तत्र वीरस्वर्गः लभ्यते परम्. एवं युद्धात् पलायनेन स्वर्गः अवश्यं नैव लभ्यते. Because what will happen is you will have akirti, and it is better to die than to have akirti. So evam aswargyam api vartate, then akirtikaram. So there are people who either who want good name and fame ihaloke tatra nama kirti apekshavah santi janaha kechana janaha tadrsha ritya api will people start talking saying that Arjuna decided not to fight the war, what a great person he is. No, people who are against you will always talk about you in a bad manner only. They will say that Arjuna, having seen all the people, he was afraid and he ran away from the battlefield. Yetareva janaha vadanti evam anarya jushtam aswargyam akirtikaram idam चित्त चाञ्चल्यं चित्तकालुष्यं यत् कष्मलमस्ति तत् कथं समुपस्थितं तत् इदानीं त्यज तेन उक्तमस्ति द्वितीयश्लोके. तृतीयश्लोके तावत् श्रीभगवान् पुनः वदति, क्लैब्यं मास्मगमः हे पार्थ, न एतत् त्वयि उपपद्यते, तदर्थम् इदं क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ हे परन्तप. अत्रापि अस्माभिः विशेषरीत्या दृष्टमस्ति, हे पार्थ, हे पृथायाः सुतः, हे पार्थ, क्लैब्यं मास्मगमः, क्लैब्यं मा अगमः, क्लैब्यं मा स्वीकरोतु, क्लैब्यमार्गं क्लीबमार्गं यदस्ति तद् मा स्वीकरोतु. त्वयि एतत् न उपपद्यते, एतत् त्वयि न युज्यते, इदं भवते सम्यक् न भवति, युक्तं न भवति, योग्यं न भवति इति सः वदति. हे परन्तप, हे परन्तप, हे शत्रुपीडक, हे शत्रुमारक, शत्रुनिवारक, हे शत्रुनिर्दलक, हे परन्तप, क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ. क्षुद्रम् अतीव तुच्छं हृदयदौर्बल्यं चित्त वैक्लव्यं चित्तचाञ्चल्यं चित्तदुर्बलता यदस्ति तत् त्यक्त्वा उत्तिष्ठ इति तत्र वाक्यद्वयं वर्तते तृतीयश्लोके. हे पार्थ, एतत् क्लीबता एषा क्लीबता त्वयि नोपपद्यते, तदर्थं हे परन्तप, क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ इति सः वदति. अत्रापि विशेषांशान् वयं दृष्टवन्तः. पार्थ इति पदस्य विशेष उपयोगः कृतमस्ति प्रथमवाक्ये. हे पार्थ, तत्र किं भवति इत्युक्ते यदा कृष्णः दूतत्वेन दौत्ये गच्छति, वेन् कृष्ण गोस् एस् एन् अम्बासिडर्, तदा कुन्ती स्वपुत्रेभ्यः पत्रं लिखित्वा प्रेषयति. शी रैट्स् अ लेटर् टु हर् सन्स् एण्ड् सेन्स् इट्, यत्र सा वदति तत्र वीरमाता या अस्ति सा स्वपुत्राणां धर्मयुद्धे जयेनैव वीरमातुः तत्र संतोषः भवति. मदर हूज अ वॉरियर, हूज द मदर ऑफ वॉरियर पीपल, तत्र धर्मयुद्धं सर्वदा सर्वथा कर्तव्यम्. To protect dharma, if sometimes some corrections or some yuddha needs to be done, that needs to be done, and by doing it as a mother, I will be very very happy. Evam sa likhitva preshayati tat smarayitumeva maturajnyapi vartate atra dharma yuddham kartum ke partha kimartham bhavan yuddham nakaroshi idanim nakaroti bhavan idanim iti sa iti madhusudanah shri bhagavan अर्जुनं प्रति छति. अपि च अस्माभिः दृष्टमस्ति पार्थ इति शब्दः अष्टत्रिंशत् वारं तत्र उपयोगः कृतमस्ति. इट् हस् बीन् यूस्ड् 38 अगेन्. पार्थः इत्युक्ते इट् ब्रिङ्ग्स् हिम् मोर् क्लोज़र् टु अर्जुन. तत्र कुन्ती तावत् मातुः स्वसा पितुः स्वसा एव कुन्ती. एवं तत्र स्व वेल्विशर्त्वं यदस्ति टु शो दट् ही इस् मोर् क्लोज़र् एण्ड् पर्सल् अण्ड् आल्सो टु कीप् आन् रिमैण्डिङ्ग् दट् कृष्ण इस् आल्वेस् अ वेल्विशर् टु अर्जुन. ही यूसस् द वर्ड् वेन् एवर् वेरि वेरि काम्प्लेक्स् थिङ्ग्स् एण्ड् हेस् टु बि एक्स्प्लेन्ड् ही यूसस् द वर्ड् पार्थ इन् श्रीमद्भगवद्गीता. अ स्टाटिस्टिकल् इण्ट्रेस्टिङ्ग् आस्पेक्ट् विच् हस् बीन् गिवन् बै वन् आफ् द भाष्यकारास्. द नेक्स्ट् वर्ड् अगेन् यूस्ड् इस् अगेन् कौन्तेय ओन्ली, विच् अगेन् टेल्स् एस् कुन्ती पुत्रः ओन्ली. सो देर् फोर् टु शो दट् ही इस् अ वेल्विशर् एण्ड् ही आल्वेस् मीन्स् गुड्, दीस् वर्ड्स् हव् बीन् यूस्ड्. एवं भाष्यकारैः दत्तमस्ति. परन्तप, परन्तप इत्यस्य तत्र यः अतीव अतीव सम्यक् दुष्टान् मारयति, स्वशत्रून् तापयति, स्वशत्रून् ताडयति, मारयति, तापयति, तादृश हे परन्तप, वन् हू इस् आल्वेस् नोन् दट् यु विल् किल् युर् यु विल् टार्चर् अण्ड् किल् युर् एनिमीस्, तादृश परन्तपः इदानीं कुत्र गतः? वेर् डिड् दट् कैण्ड् आफ् अर्जुन गो नौ? बिकास् इदानीं तावत् यु आर् इन् टु क्षुद्रं हृदयदौर्बल्यं. द वर्ड् क्षुद्रं केवलं हृदयदौर्बल्यम् इति वक्तुं तेन इति वचनेन अलमासीत्. परं यदि पश्यामश्चेत् क्षुद्रं हृदयदौर्बल्यम् इति उक्तमस्ति. क्षुद्रं वन् दिस् हृदयदौर्बल्यं विच् इस् देर्, दिस् वीक्नेस् आफ् मैण्ड्, दट् इट् सेल्फ् इस् अ तुच्छ अवस्था. इट् इस् अ बेड् सिचुवेशन् टु बी इन् दिस् कैण्ड् आफ् अ डिल्यूशन् आर् डिप्रेशन् विच् इस् आफ् नो रीज़न्. एवं तत्र तादृश तुच्छं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ट. अन्यदपि विशेष अर्थः दत्तमस्ति. दिस् वीक्नेस् आफ् मैण्ड् विच् इस् देर् ईस् इट् सेल्फ् अ तुच्छं. सो एनिथिङ्ग् विच् इस् तुच्छं शुड् बि ईजियर् टु गिव् अप् एण्ड् देन् कम् बेक् टु युर् नार्मल् स्टेट्. तादृशमेव उक्तमस्ति. जनरली मानवः एन् एनी ह्यूमन् बीङ्ग् वेन् आर् आल्वेस् ह्यूमन् बीङ्ग्स् आर् आल्वेस् गिवन् लाट् आफ् टेलेण्ट् अण्ड् केपबिलिटीस् एण्ड् एनी कैण्ड् आफ् डिल्यूशन् आर् डिप्रेशन् विच् इस् कास्ड् इन् ह्यूमन् बीङ्ग्स् ईस् आल्वेस् तुच्छम्. सो इट् इस् नाट् देर् नेचुरल् स्टेट् आफ् मैण्ड्. सो आल्वेस् दे शुड् गिव् अप् द any kind of depression or delusion, and they should always come to their normal state, because they always have the atma sambandhi. They are always dehi. They are always the atma swarupins. Once they are atma swarupins, they always have a constant connection to the jivatma, to the paramatma. Therefore they can never be anything which is tuchham, any delusion or any depression. There is no place for that for any human beings. एवमेव क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ. एण्ड् दिस् आफ्टर् अगेन् द सेम् क्षुद्रं हृदयदौर्बल्यं ही एक्स्प्लेन्स् इट् इन् टु फर्दर् श्लोका 31-38 आफ् सेकेण्ड् चाप्टर् इफ् यु सी. वि विल् टेक् द लिङ्केज् लेटर् आन्. एवं तत्र गतकक्षासु यत्कृतमस्ति तदेकवारम् अस्माभिः चर्चितमस्ति. इदानीं श्लोका नम्बर् 4 स्वीकुर्मः. एकवारं वदामि, सर्वे अनुवदन्तु. अर्जुन उवाच, कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन इशुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन द्विवारं श्लोकं पठन्तु पदच्चयं पश्यन्तु कर्तृकर्मक्रियाम् अन्वेषयन्तु కర్తృపదం వెరీ సింపుల్ ప్రథమ వాక్యే అస్తి కర్తృ కర్మ క్రియా కర్తృపదం కర్మపదం క్రియాపదం అహం కర్తృపదం సమ్యక్ సంఖ్యే సంఖ్యే ఇస్ మోర్ ఆఫ్ యుద్ధే ఇది భవతి సో ఇట్ ఈస్ మోర్ ఆఫ్ ఎ సప్తమి విభక్తి అస్తి క్రియా నభవతి అహం ఇత్యస్తి ఏవం మి భవతి క్రియాపదే దట్ విల్ బి యోత్స్యామి ప్రతియోత్స్యామి అహం యోత్స్యామి సమ్యక్ అహం డాష్ ప్రతియోత్స్యామి కం ప్రతియోత్స్యామి ఇదానీం కం కం కర్మపదం భీష్మం ద్రోణం సమీచీనం అహం భీష్మం ద్రోణం ప్రతియోత్స్యామి తావదేవ అతీవ సమ్యగస్తి అహం భీష్మం ద్రోణం ప్రతియోత్స్యామి కథం హౌ ఆమ్ ఐ గోయింగ్ టు ఫైట్ హౌ విల్ ఐ ఫైట్ దీస్ పీపుల్ తావదేవ సహ పృచ్చతి ప్రతియోత్స్యామి హౌ విల్ ఐ ఫైట్ భీష్మ అండ్ ద్రోణ అన్యత్ సర్వం తత్ర ఆల్ ద ఫిల్లర్ వర్డ్స్ ఆల్సో వి విల్ సీ ఇట్ యాజ్ వి గో అహెడ్ అర్జున ఉవాచ పదచ్ఛేద ఏం వర్తతే అర్జున ఉవాచ కథం భీష్మం అహం సంఖ్యే ద్రోణం చ మధుసూదన ఇషుభిః ఇషుభిః కథం ప్రతియోత్స్యామి కరెక్ట్ ఇషుభిః కథం ప్రతియోత్స్యామి కీదృశాః ఏతే పూజార్హౌ అరిసూదన పూజార్హౌ భీష్మ ద్రోణౌ పూజార్హౌ అరిసూదన పదచ్ఛేదః తావత్ అర్జున ఉవాచ కథం భీష్మం అహం సంఖ్యే ద్రోణం చ మధుసూదన ఇషుభిః ప్రతియోత్స్యామి పూజార్హౌ అరిసూదన పశ్యామః అన్వయం పదపదార్థం పశ్యామః హే మధుసూదన అహం అర్జున సంఖ్యే అస్మిన్ యుద్ధే యుద్ధస్థలే అస్మిన్ కురుక్షేత్రే ధర్మక్షేత్రే కురుక్షేత్రే యుద్ధే కథం కథం కేన ప్రకారేణ పూజార్హౌ అతీవ సమ్మాన్యౌ సమ్మానయితుం పూజయితుం యోగ్యౌ అర్హౌ పూజాం కర్తుం అర్హౌ దోస్ పీపుల్ హూ ఆర్ ఫిట్ టు బి వర్షిప్డ్ హూ ఆర్ ఫిట్ టు బి ప్రొటెక్టెడ్ అండ్ హూ ఆర్ ఫిట్ టు బి ఫ్రమ్ హూమ్ వీ షుడ్ బి టేకింగ్ బ్లెస్సింగ్స్ అండ్ ఆశీర్వాదంస్ తాదృశ పురుషౌ భీష్మం ద్రోణం చ తాదృశాః భీష్మద్రోణాదయః తాన్ అహం ఇషుభిః కథం ప్రతియోత్స్యామి ఇషుభిః బాణైః విత్ ఆరోస్ ప్రతియోత్స్యామి సంప్రహరిష్యామి మారయిష్యామి కథం హౌ విల్ ఐ ఈవన్ ట్రై టు కిల్ దెమ్ త్రూ ఆరోస్ హే అరిసూదన తదిదానీం కృపయా మాం వదంతు కృపయా మాం తత్ర క్లారిఫై కరోతు ఇతి సహ అర్జున కృష్ణం ప్రతి పృచ్చతి పశ్యామః హే మధుసూదన హే కృష్ణ అహం అహం ఇత్యుక్తే అర్జున అత్ర సంఖ్యే యుద్ధే యుద్ధస్థలే అస్మిన్ యుద్ధే అస్మిన్ ధర్మయుద్ధే కథం కథం కేన ప్రకారేణ హౌ ఇస్ ఇట్ ఈవెన్ పాసిబుల్ దట్ పూజార్హౌ దీస్ పీపుల్ ఐ షుడ్ యాక్చువల్లీ ఇన్వైట్ దెమ్ టు అవర్ హౌస్ ఐ షుడ్ వాష్ దేర్ ఫీట్ డూ పూజా టు దెమ్ అండ్ విత్ దట్ तेषां निर्नेजन जलं यदस्ति तत्र ब्राह्मण पादपांसवः जलं यदस्ति तत् अनेक पापान् नाशयति मम वंशं उद्धारयति तादृश शास्त्रैः यत् उक्तमस्ति जस्ट् बै वाशिङ्ग् द फीट् आफ् एल्डर्स् एण्ड् स्प्रिङ्क्लिङ्ग् दोस् वाटर् आन् अवर् हेड् लाट् आफ् सिन्स् एण्ड् our generations get purified by this, which is why for any Bhagavatas or Vedic Pandits who are come, we do that to them. Tadrusha Pujarahau Bhishma Dronadayah Bhishma Dronau Cha Pujarahau Yaustah Tanam Ishubihi Katham Pratiyotsyami. How will I even kill them with Bana, with arrows? सः पृच्छति पूजार्हौ सम्मान्यौ योग्यौ भीष्मं द्रोणं च भीष्मद्रोणौ तौ इषुभिः बाणैः प्रतियोत्स्यामि मारयिष्यामि संप्रहरिष्यामि अरिसूदन हे अरिशत्रु सूदन भञ्जन निर्दलन हे शत्रुभञ्जन हे शत्रुनिर्दलन कृपया वदतु कथम् अहं तान् इषुभिः प्रतियोत्स्यामि इति पदिचयं पश्यामः हे मधुसूदन अकारान्तःपुल्लिङ्गः मधुसूदनशब्दः सम्बोधनप्रथमैकवचनम् अहम् अस्मत्शब्दः दकारान्तः त्रिलिङ्गकः सर्वनामशब्दः प्रथमैकवचनम् सङ्ख्ये नपुंसकलिङ्गसप्तमी एकवचनम् सङ्ख्ये युद्धे युद्धक्षेत्रे धर्मक्षेत्रे कुरुक्षेत्रे तादृशयुद्धक्षेत्रे अस्मिन् युद्धे धर्मयुद्धे कथं तावत् अव्ययम् प्रश्नार्थक अव्ययम् पूजार्हौ पुल्लिङ्ग द्वितीयाविभक्ति एक द्विवचनम् पूजार्हः पूजार्हौ पूजार्हः पूजार्हम् पूजार्हौ पूजार्हौ भीष्मं द्रोणं च द्वितीयाविभक्ति एकवचनं भीष्मं द्रोणं च इषुभिः इषु उकारान्त पुल्लिङ्ग इषुभिः तृतीया बहुवचनम् प्रतियोत्स्यामि यदि वयं पश्यामश्चेत् योत्स्यामि इति अस्ति तत्र प्रतियोत्स्यामि प्रति इति उपसर्गपूर्वक युध संप्रहारे इति धातुः दिवादिगणीयः अयम् तत्र लृट्लकारस्य उपयोगः तत्र कृतमस्ति यदि वयं पश्यामश्चेत् युध संप्रहारे इति धातुस्तावत् आत्मनेपदी धातुः एव The basic form should always be yotsyate, yotsyate, yotsyante, yotsyase, yotsyate, yotsyadve, yotsye, yotsyavahe, yotsyamahe. The dhatu yudha samprahare is always in atmanepadi. It is an atmanepadi dhatu falling under the divadi gana of the ten ganas. Bhuvadayo dhatavah with the ten ganas what we have out of that in divadi gana it falls. But then they have used the word pratiyotsyami. How is it used? Anybody can tell? Pratiyotsyami has been used. It is used in Parasmaipadi here. How have they used this? Lakara is anyways Lrit Lakara. We know this. Prati upasarga. This is what even initially we were also thinking, but it is not because of prati this thing. Param yetat arsha prayoga. This is an arsha prayoga, rishi prayoga, which is there. Which is there are these kind of prayogas which may not fit into the apaniniya, which may not fit into the vyakarana rules of Panini. एवम् अपाणिनीयप्रयोगम् यदस्ति आर्षप्रयोगः एतत् दिस् इस् अ ऋषिप्रयोग बिकास् दीस् हव् बीन् रिटन् बिफोर् द पाणिनी रूल्स् एवं तत्र अपाणिनीय आर्षप्रयोगः प्रतियोत्स्यामि इति पदम् बोत् इन् वाल्मीकि रामायणम् एण्ड् इन् महाभारतम् सी लाट् आफ् प्लेसस् वेर् देर् आर् यूसेज् आफ् वर्ड्स् विच् मे नाट् फिट् इन् टु द रूल्स् आफ् पाणिनि दोस् आर् काल्ड् एस् आर्ष ऋषेः इदम् आर्षम् आर्षप्रयोगः अपाणिनीय प्रयोगः देर्फोर् प्रतियोत्स्यामि बट् बिकास् आफ् द साङ्क्टिटि आफ् द पीपल् नेम्ली वाल्मीकि एण्ड् वेदव्यास दे गेट् द वर्ड् गेट्स् द साङ्क्टिटि आटोमेटिकलि बट् इट् मे नाट् फिट् इन् टु द पाणिनी रूल्स् ओन्ली एनीवेज योत्स्यामि लकारस्तावत् लृट् लकारः भविष्यत् कालार्थकः लृट् लकारस्य उपयोगः हौ विल् ऐ फैट् देम् कथम् अहं प्रति योत्स्यामि कथम् अहं सम्प्रहरिष्यामि इति तत्र लृट् लकारः अत्र उपयुज्यते अरिसूदन शत्रुभञ्जन अगेन् हे अरिसूदन पुल्लिङ्ग सम्बोधन प्रथमैकवचनं वि विल् सी द वै इट् इस् बीन् यूस्ड् इन् द विशेष भाग हे मधुसूदन अहं सङ्ख्ये कथम् इषुभिः पूजार्हौ भीष्मद्रोणं च प्रतियोत्स्यामि हे अरिसूदन कृपया वदतु इति सः पृच्छति अनन्तरं पश्यामश्चेत् सन्धिभागं पश्यामश्चेत् पूजार्हावरिसूदन sometimes upasarga changes yes yes samyak sometimes it changes but in this place prati the usage is not like that the guess is correct what you told was also correct sometimes upasargena tatra parasmepaditva atmanepadi changes do happen but in this place pratiyotsyami it is an arsha prayoga which is what has been given by the bhashyakarehi yame vadatamasti so this does not fall into that rule where by upasarga the word is changed in some cases it does happen you are right in that samichinam sandhi pujarha varisudana sandhi bhagam pashyamah pujarhau arisudana sandhi is also already there but an interesting sandhi again pujarhau if you see a o I au or rather ay ay av av एवं वान्तादेश सन्धि अस्ति औ प्लस् एनी असवर्ण एनी स्वर औ प्लस् एनी स्वर देर् फोर् इट् टेक्स् द फार्म् आफ् पूजार्हौ अरिसूदन आव् कम्स् इन् प्लेस् पूजार्हाव् अरिसूदन भवति वान्तादेशसन्धिः भवति समासः पूजार्हौ पूजम् अर्हौ पूजार्हौ पूजां कर्तुं योग्यौ पुरुषौ पूजार्हौ पूजां कर्तुं योग्यौ सम्मान्यौ सम्मानयितुं योग्यौ पुरुषौ पूजार्हौ फिट् टु बि वर्षिप्ड् द्वितीया तत्पुरुषः अर्हः अर्ह प्लस् अच् प्रत्ययस्य उपयोगः एवम् अर्हः फिट् योग्यः योग्यः वुड् बि य प्रत्यय अर्हः इस् मोर् आफ् अच् प्रत्यय अर्हः फिट् वन् हू इस् फिट् टु बि वर्षिप्ड् अर्हः योग्यः दीस् आल् give that meaning agre pashyamah tatra vishesha bhage pashyamaschete madhusudana arisudana he uses these kinds of words madhusudana and arisudana tatra bhashyakarehi dattamasti bhavantavat he krishna bhavantavat dushta shikshanam shishta paripalanam karoti sarvada sarvatha bhavata uktamasti तत्र भीष्म द्रोणादयः सर्वे भवद्भक्ताः इति अग्रे तावत् यदा वयं पश्यामः तत्र विष्णुसहस्रनामस्य भागोऽपि वर्तते महाभारते वन् आफ् द ग्रेटेस्ट् भक्ता आफ् कृष्ण वि सी इस् भीष्म तर्हि भवान् सर्वदा मध्वादीन् असुरान् वा अरीन् ये अरयः सन्ति ये असुराः सन्ति ये दुष्टाः सन्ति तानेव मारयति भवान् परम् इदानीं भीष्मद्रोणादयः ये पूजार्हाः सन्ति तान् मारयितुं भवान् किमर्थं प्रचोदनां करोति इति सः पृच्छति एवं यु आल्वेस् किल् मधु अण्ड् अदर् डेमन्स् यु आल्वेस् किल् अरीस् अरयः एनिमीस् आल् द एनिमीस् यु किल् परम् अद्य भवान् वदति तत्र भीष्मद्रोणादयः ये सन्ति पूजार्हाः ये सन्ति तान् मारयतु इति वदति किल कथम् एतत् शक्यते सो दट् कथं केन् बि taken even for that hey madhusudana hey arisudana why are you instigating me into a apparently wrong path evam prachati saha tadarthameva madhusudana arisudana iti tatra padadvayasyapi upayogah kritam iti bhashyakarehi uktamasti katham again he says you may think that I am tatra you are saying klaibyam masma gamah please kripaya klaibyam ma अगमः इति भवता उक्तमस्ति, परं दिस् इस् नाट् बिकास् आफ् क्लीबत्वम्, इट् इस् ओन्ली बिकास् आफ् पूजार्हौ, बिकास् आफ् रेस्पेक्ट् ऐ एम् रिफ्रेनिङ्ग् फ्रम् फैटिङ्ग् दीस् पीपल्. अपि च who are these kind of people, ke why these two people, because both the people have very very special role in the life of Arjuna. Bhishma was the person whom Arjuna considered as much as his father, though, and he respected him very much, so he used to call him generally as his father only. He pitaha itteva sah aahvanam karoti sma tada tatra. Bhishma also used to generally subtly remind him that I am your father's father, I am pitamaha aham only. He used to very affectionately tell him aham pitamaha iti sah, he used to tell him, and he was the one who got Dronacharya and introduced Arjuna to the Pandavas especially, and Arjuna especially to Dronacharya, so that tatra Arjuna could become lokottara dhanurdharah. Again, Drona, if we see, had a very special affection for Arjuna. He imparted such amount of knowledge which was greater than to what he imparted to Ashwatthama. For example, if we see, tatra brahmastrasya prayogastavati, he taught to both, but how to control it and get it back to your vasha was taught only to Arjuna. Also, lot of times we have seen tatra even ekalavyasya guru dakshina charitam idi vayam pashyamaschedapi, he had a special affection towards Arjuna, wherein he could even make others a little bit inferior and make Arjuna as superior. Tadrsha vancha yuktau purushau, tadrsha ativa sneha yuktau vatsalya yuktau purushau bhishmadronau. These kind of people, if I am going to kill, how can I ever do that? So he uses only these two people for referring in this. Evam kimartham, why, if somebody asks why only Bhishma and Drona have been referred to in this shloka and not other people, if we see the other people, we have Balhika, we have Shalya, we have lot of elderly people are also there, but to show the special affection and the importance of what these two people played in his life, in his growing up, tad darshayitum eva anayoho nama upayuktamasti upayujyate atra. Ishubihi word has been used tatra Sridhariya vyakhyane pashyamaschet. Sridhara Swami says vachapi yotsyami iti vaktum anuchitam, even by words if I talk to them very harshly, that itself will be a very very wrong thing, talking to these kind of elders who have made me today. Tadrsha gurunam tadrsha acharyanam samupastitau tatra vachapi, even by words, or manasapi, even by thoughts, if I am going to yotsyami, I am going to fight them, even if I think or even if I tell them, that will be anuchitam, tatu uchitam na bhavati. Tadrsha pujarhau purushau katham aham ishubihi, by arrows, by all these arrows which are edged with poison. Generally the arrows, if we see, have very sharp edges which are tipped in poison. Tadrsha arrows with poison, how can I ever fight them and kill them? Saha evachati etadeva idanim tatra panchama shlokam pashyamaha. Fourth shloka we will just tell once. He Arjuna uvacha katham bhishmamaham sankhe dronam cha madhusudana ishubhif pratiyotsyami pujarhavari sudana. Let us go to the fifth shloka. Guru nahatvahi mahanubhavan anuvadantu श्रेयो भोक्तुम भैक्ष्यमपि हलोके हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्. द्विवारं श्लोकं पठन्तु, पदच्छेदं कुर्वन्तु, कर्तृकर्मक्रियान्वेषणं कुर्वन्तु. Read the shloka two times. Let us look at the padacheda. वाक्यद्वयं कर्तुं शक्यते अत्र अर्थावगमनाय। यद्यपि श्लोके क्रियापदम् एकमेव वर्तते, तत्रापि द्वितीयक्रियापदस्य योजनेन वाक्यद्वयं कर्तुं शक्यते, येन अर्थावगमनं सुलभं भवति। अहं भुञ्जीय, करेक्ट्, वेरि गुड्। अहं कर्तृ, भुञ्जीय क्रिया, वेरि गुड्। प्रथमं वाक्यं स्वीकुर्मश्चेत् ओवराल् दिस् टु आर् करेक्ट्। भैक्ष्यं क्रिया, भैक्ष्यं, भैक्ष्यं तत्र क्रिया प्रायशः न भवति। तत्र भैक्ष्यम् इति यदस्ति भिक्षायोग्यं, हा कर्तृ। भैक्ष्यं भुञ्जीय, ओके। अन्वयं कर्तुं शक्यते, पश्यामः, वि विल् सी। वदन्तु वदन्तु। पश्यामः पदच्छेदः, पश्यामः। गुरून् अहत्वा हि महानुभावान् श्रेयः भोक्तुं भैक्ष्यः अपि इह लोके। हत्वा अर्थकामान् तु गुरून् इह एव भुञ्जीय भोगान् रुधिरप्रदिग्धान्। एवमेव पश्यामश्चेत् महानुभावान् गुरून् अहत्वा अस्मिन् लोके भैक्ष्यमेव श्रेयः अस्ति इति स्वीकर्तुं शक्यते। प्रथमं वाक्यं तावत् महानुभावान् गुरून् अहत्वा भैक्ष्यं भोक्तुं श्रेयः अस्ति, प्रथमं वाक्यं। द्वितीयं वाक्यं तावत् यदि अहं एतान् गुरून् हन्मि, यदि अहं तान् मारयामि, तदा किं प्राप्नोमि? तदा अर्थकामान् भोगान् एव रुधिरप्रदिग्धान् अर्थकामान् भोगानेव अहं भुञ्जीय, तादृशभोगं मह्यं मास्तु इति सः एवं चिन्तयति। पश्यामः तत्र वाक्यद्वयं कृत्वा तत्र अर्थं सरलीकर्तुं शक्यते। महानुभावान् गुरून् अहत्वा भैक्ष्यं भोक्तुम् इह लोके श्रेयः। देर् वि केन् स्टाप् अट् द फस्ट् सेण्टेन्स्। महानुभावान् गुरून् अहत्वा भैक्ष्यं भोक्तुम् अस्मिन् लोके श्रेयः अस्ति, तदेव श्रेयः। आफ् द टु आप्षन्स् द द्वितीय आप्षन् आफ् भैक्ष्य भोजनम् इट् सेल्फ् इस् श्रेयः, दट् इस् बेटर् फार् मी। तत्र अग्रे पश्यामश्चेत् यदि अहम् एतान् मारयामि चेदपि, इवन् इफ् ऐ किल् देम्, तान् हत्वा वाट् विल् ऐ गेट् आफ्टर् किल्लिङ्ग् देम्? रुधिरप्रदिग्धान् अर्थकामान् भोगान् एव भुञ्जीय। ऐ शुड् बि एन्जायिङ्ग् ओन्ली दीस् कैण्ड् आफ् एन्जाय्मेण्ट्स् विच् आर् फिल्ड् स्टेन्ड् वित् ब्लड् अण्ड् विच् आर् अर्थकामान्, विच् आर् वेरि अर्थपर अस्ति, विच् आर् नाट् धर्मपर यद् नास्ति, तत् केवलम् अर्थकामाः सन्ति इति स्वीकर्तुं शक्यते। इदानीं पुनः पश्यामः, टु सेण्टेन्सेस् केन् बि डन्। महानुभावान् ग्रेट्, वेरि वेरि ग्रेट् सोल्ड्, गुरून् द मास्टर्स् अहत्वा, इन्स्टेड् आफ् किलिङ्ग् दीस् महानुभावान् गुरून्, वाट् केन् ऐ डू? ऐ हव् टु आप्षन्स्, एदर् किल् भीष्म द्रोणादयः, आर् गो, वाट् विल् हेपन्, यु स्टाण्ड् हियर्, they will either kill you off, which is wrong. Okay, they decide that they won't kill you, they will also keep quiet. Then what you should do? You go back, because you do not have rajya, you do not have any means of sustaining. Therefore finally you will be forced to ask for alms from people. Begging is what you should be doing, which again is akshatriya, which is against the kshatriya rules. But still, between these two options of either killing my gurus or going for begging, I would rather prefer begging only. Bhiksham bhoktum asmin loke eva shreyah vartate, shreyah asti. We can close out the first sentence there. Evam, first sentence. Dvitiyam vakyam. Yadyapi, even if I try to kill them, yadyapi aham marayami chedapi. In the worst case scenario that I am not going to kill them, but even if I kill them, then what am I going to get? What will I get? Iha rudhira pradigdhan, rakta mishritan, which is filled with blood, tadrusha, I will get all these enjoyments and pleasures which are stained by the blood and which is got after killing my gurus. Tadrusha, rakta pradigdhan, rakta mishritan, rakta sammilitan, arthakaman, arthakamarupan, all these wealths and the treasury and all the rajya idasti, tadrusha bhogan bhunjiya, should be enjoying them, which I do not want. Yat aham napekshe, tadartham nayotsye, iti saha vadati. Padapadartham pashyamaha, mahanubhavan, ativa, mahashayan, sammanayitum, pujam kartum, yogyan, tatra, अतीव श्रेष्ठ जनाः सन्ति तान् गुरून् अहत्वा तत्र परलोक विरुद्धः गुरुवदस्तम् अकृत्वा इहलोके भिक्षान्नमपि भोक्तुं श्रेयः तत् उचितम् इति श्रीधर्य स्वामी व्याख्यानम् एवमस्ति. तत्र ahatva, gurun ahatva, not having killed them, that is, instead of slaying them, not killing them, aham bhaiksham, bhaiksham, bhikshacharanam, by asking for alms, begging, bhoktum, bhojanam kartum, khaditum, shreyaha, tadeva, sadhu. Out of the two options, the option of going for bhiksha itself is sadhu, is what sahavadati. Bhiksham khaditum iha loke asmin loke shreyaha sadhu bhavati. Tan hatva, tan vinashya, tan marayitva asmin prapanche raktamishritan arthakamarupan bhogan tatra rajyadi bhogya vastun vastu visheshan aham bhunjiya katham asvadayeyam katham aham svikuryam कम अनुभवेयम् इति सः पृच्छति. महानुभावान् अकारान्त पुल्लिंग द्वितीया भक्ति बहुवचनम् गुरुन् द्वितीया भक्ति बहुवचनम् कनेक्टेड वर्ड्स. अहत्वा त्वान्तव्यम् वी हैव सीन विल सीन इट इन द कृदंत भागम. भैक्ष्यम् भैक्ष्यम् भिक्षा 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 प्राप्तम् भिक्षा संबंधी भिक्षाः भिक्षायाः इदं भैक्ष्यम्. नपुंसकलिंग द्वितीया भक्ति एकवचनम्. भोक्तुम् तुमुन्नन्तव्यम् quite easy ones. Iha abhyam loke saptami ekavachanam. Shreyaha shreyaha shreyas shabdaha sakaranta napumsakalinga prathama ekavachanam. Hatva twantavyam iha avyam eva avyam rudira pradigdhan arthakaman bhogan dvitiya bhakti bahuchanam, all three connected words. Bhunjiya bhunjiya yadi pashyamaschet bhuja palana अभ्यवहारयोहो इति धातुः. भुज पालन अभ्यवहारयोहो इति धातुः. इट इज अगेन अ आत्मनेपदी धातु, फॉल्स अंडर रुधादिगण. हियर द फॉर्म यूज्ड इज विधिलिंग लकारस्य उपयोगः कृतमस्ति. भुंजीत भुंजीयातां भुंजीरन् भुंजीथाः भुंजीयाथां भुंजीध्वं भुंजीय भुंजीवहि भुंजीमहि एवं तत्र विधिलिंग रूपाणि. भुंजीय अहम भुंजीय उत्तम पुरुष एकवचनम् एवं भुंजीय. एवं अग्रे पश्यामः. मानुभावान् गुरुन् अहत्वा एवं सतस्य मम भैक्ष्यं भोक्तुम् इह लोके श्रेयः तान् गुरुन् हत्वा अस्मिन् लोके रुधिर प्रदिग्धान् अर्थकामान् भोगान् कथं भुंजीय. हौ कैन आई इवन थिंक ऑफ एंजॉयिंग दोस काइंड ऑफ these enjoyments. Tatra again, if we see these kind of bloodstained, when we see these words, we always remember the Macbeth story written by William Shakespeare, wherein after killing, at that time she tries to wash the hands, and then they, says that even all the waters of the Arabian Ocean cannot remove this stain. So even after, which actually signifies that whatever prayaschitta karma we do after killing pujarhas, after killing worthy people, whatever prayaschittam, whatever we do, it will not remove the stain or the papa, apaparjana, because of killing this pujarha. Evameva sopi vadati, it is blood-stained, that kind of stains, which cannot be removed by any prayaschitta karma. So tadrusha tadrusha bhogan katham bunjiya, how will I even be able to, how should I enjoy all these things. Sandhi bhagam pashyamaha, shreyo bhoktum shreyah bhoktum visarga sakara desha visarga sakara ukara guna rupa bhavati. Visarga takes the form of u, therefore a plus u, o shreyo bhoktum api iha savarnirga sandhi mahanubhavan mahan अनुभावः येषां ते महानुभावाः ते तान् महानुभावान् बहुव्रीहि समासः हत्वा वि हैव ऑलरेडी सीन हनु प्लस त्वा त्वान्तव्यं भोक्तुं भुजु प्लस तुमुन् भुजु धातुः तुमुन् प्रत्ययः भोक्तुं श्रेयः श्रेयः अतीव प्रशस्त वि सी ई युसन् प्रत्ययः अतिशये वि आल्सो सी दिस् प्रत्यय बीङ्ग् यूस्ड् इन् द फर्दर् श्लोकास् आल्सो ईयसुन् अतिशये दट् इस् श्रेयः विच् इस् बेटर् आफ् द टु to compare and tell which is better, shreyaha iti padasya upyogaha. Bhaiksham bhikshayaha idam bhaiksham shanj pratyaha tadita prayogaha shanj bhagaha. Visheshamshan pashyamaha, tatra nimeshadvayam vartate, visheshamshan shigram pashyamaha. Gurun kaha nama guruhu iti tatra vyakhyam kartum, tatra dinani masani kartum shakyate. Audio is not, it is not audible. Are we able to hear? I think Padma Mami has some audio problems. Please let me know if everybody is facing the same problem. Okay. Right. Probably little bit on the samyakshunami bhavatu. Tatra kinchit. Okay, fine. Dhanyavadaha. Tatra guru, ko nama guruhu iti vayam pashyamaschet. There are lot of explanations, lot of origins. Tatra we have seen. Tatra guru mahima aparaditya vartate. One of the famous definitions is gukaras tvandakara andakaraha rukaraha tannirodakaha. By the word gu denotes ignorance, darkness. Ru denotes the remover of tadrusha darkness. That is, a guru is one who removes all ignorance, all doubts, all darkness from our lives. Tadrushaha eva guruhu iti uktamasti. Gurutvat, yogyatvat, the original word means heavy. Whatever is heavy, guru means heavy, which is of a weight. Therefore, heavy by the spiritual qualities, heavy by the guna, whatever good gunas, heavy by knowledge, and one who can also, guru also, one of the other meanings of guru is also to lift, to lift or to raise. There is one more meaning to the word guru. Therefore, a person who lifts us up and who raises us, tadrshah api guruhu iti shabdena saha tatra dyotanam kartum shakyate. Even ekamevaksharam yastu guruhu yaha tatra asman shikshayati prithivyam nasti tadravyam yaddatva chandrani bhavet. So a guru, we have seen such shlokas wherein even one letter a guru who teaches, there prithivyam nasti tadravyam, there is we do not have that kind of wealth in this world, yaddatva, having been given which we all become andrani, we can be removed from that debt. Tadrusha guru mahima uktamasti. Tadrusha gurun, we can't even tell, we can't even speak harshly to them. Tadrushan katham marayitum shakyate iti Arjunaha chintayati. Also, kshatriya dharma, if we see, is only to do dharma yuddha and not to beg. Arms begging is being prohibited for kshatriyas. Therefore, so, but even though it is prohibited, it is ashastriya, now it appears to be better than killing, which appears to be more sinful for Arjuna. Also, the word arthakaman, if we see, lot of people, because it is arthakaman gurun iti tatra, though it is being taken along with that, but rather arthakaman would be better to be used along with bhogan, because rudira pradigdan arthakaman bhogan, it is easier to, or it is reasonable to put it along with those three, connect those three words, because we start with mahanubhavan gurun, again we cannot say arthakaman gurun, evam tatra mahanubhavan gurun will be more apt. That is, if we see in our anvaya bhage pashyamaschete mahan bhavan gurun ahatva, because some of the people use mahanubhavan arthakaman gurun ahatva. If he already knew that they were arthakamaha, and if he had realized that, he wouldn't have got this doubt at all. So though some commentaries take the use the word arthakaman along with gurun, it would be rather more reasonable to use the arthakaman along with rudira pradigdhan arthakaman bhogan bunjiya. Tatra anvayam tatva anvayakaranena tatra prayashah samyak bhavati iti vaktum shakyate. Evam tatra kanichana visheshaam shaha asmabhi drashtamasti. Tatra shlokadvayam atra adya guru kripaya kartum asmabhi prayatnam kritamasti. Kripaya chintanam kurvantu. Go through the shlokas. Any new ideas or new thoughts or suggestions, improvements, sarvada, sarvatha, svikarya. We are ready to take any suggestions and improvements. Also, while you are reading, if you get new ideas and new arthas, please share with us. We can all enjoy together. Yatra Yogeshwarah Krishno Yatra Partho Dhanurdharah Tarashrir Vijayo Bhutir Dhruvani Tirmatir Mama Guru Reva Gatihi Guru Meva Bhaje Guru Naiva Sahasmi Namo Gurave Nagurov Paramam Shishurasmi Guror Matirasti Gurau Mama Pahi Guru. Sarvebhyah Ram Ram Ram. Dhanyavadaha. Thanks for attending. Sarvebhyah Ram Ram Ram. Agami Tatra Guru Vasare Shodashadinanke Punar Milamaha. तावत् पर्यन्तं मंगलानि भवन्तु, श्रेयांसि भूयांसि भवन्तु.